चतुर्थोऽध्यायः नराः फलानि वनेषु लभन्ते। वने वृक्षाः इद्धन्ते, नराः च न वसन्ति। नृपस्य अश्वः नरस्य आहारं खादति, नृपेण सह वनिसीदथः वदथः च। नृपैः नराणां फलानि लभ्यन्ते, नरः वने वसति, वृक्षाणां च फलानि खादति। नरस्य अश्वेन नृपस्य वनं गम्यते, नरौ वृक्षस्य फलानि लभ्येते, आहारं च पचेते। वनं गच्छामि, फलानि लभे, आहारं च पचे।